एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नवरात्रस्य षष्ठी दिवसे अद्य पञ्चम्यां तिथौ देवी स्कन्दमाता समाराध्यते। रवि सोमवासरयोः दिनद्वयं चतुर्थी तिथि राशिदतः दिनद्वयेऽपि चतुर्थ दिन सम्बद्धायाः कुष्माण्डा भगवत्याः आराधना विहिता इत्यतः अद्य षष्ठं दिनं सदपि पञ्चमी तिथिरस्तीत्यतः पञ्चम दिन सम्बद्धा स्कन्दमाता समाराधनीयेति पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितमस्ति। स्कन्दमातुः भक्त्या सन्तान सुखेन सहैव पृथ्वीऽपि उर्वरा सम्पद्यते इति पौराणिकी मान्यता वर्तते। शुम्भ निशुम्भादीनाम् असुराणां विनाशाय नवरात्रिषु देव्या गृहीतानां विविधानां रूपाणां समाराधना विधीयते। प्रतिगृहं शक्तिपीठेषु च घटस्थापनास्थले दुर्गा सप्तशत्याः देवी भागवतस्य अन्येषां च देवीस्तोत्राणां भक्तिपूर्वकं पाठं विधाय देवी समाराध्यते। अस्मिन् दिने आराश्रम विद्यमानेषु शक्तिपीठेषु देव्याः दर्शनाय पूजायै च भक्तजनानां सम्मर्दो वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन सह प्रधानमन्त्रिणा केपी शर्मा ओलिना ह्य मेलवार्ता विहिता अस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने सम्भूते मेलने राष्ट्रपतिः पौडेलः साम्प्रतिके समये आवश्यकस्य सुशासनस्य वृत्त्युपार्जनस्य काठिन्यस्य समाधानं विधाय यूनां कृते स्वदेशे एव स्थातुं परिस्थितिर्निर्मेयेति परामृष्टवान्। संयुक्त राष्ट्रसंघस्य महासभायां भागं गृहीत्वा स्वदेश प्रत्यागमनानन्तरं तत्सन्दर्भं बोधयितुं राष्ट्रपति भवने प्राप्तं प्रधानमन्त्रिणम् ओलिनं राष्ट्रपतिः पौडेलः राजनीतिक दलानि मिलित्वा देशे दृष्टानां समस्यानां समाधानम् अन्वेष्टुम् अनुरुणत इति राष्ट्रपतेः संचार परामर्शदाता किरण पोखरेलः असूचयत्। राष्ट्रपतिः पौडेलः सम्प्रत्यैव दुरापन्नाभ्यां जलविप्लव भूस्खलनाभ्यां प्रभावितानां सहयोगाय पुनर्निर्माणस्य कार्येषु तीव्रतां प्रदातुं च सर्वकारेण विशेषेण ध्यानं देयमित्यत्र बलं प्रादात्। तदवसरे प्रधानमन्त्री ओली द्वयोः दलयोः संयोजनेन संघटितेन सर्वकारेण सुशासनाय विकासाय च केन्द्रीभूय कार्यं क्रियते इति प्रावोचत्। प्रधानमन्त्री ओली संयुक्त राष्ट्रसंघस्य महासभायाः क्रमे सम्भूतं भ्रमणं फलदायी प्रभावकारी च जातमिति राष्ट्रपतेः समक्षं ज्ञापितवान् आसीत्। प्रधानमन्त्री केपी शर्मा ओली विद्युतः क्षमता विस्ताराय ऊर्जविकास कार्ययोजनायाः विषये च ह्यः सम्बद्धै मन्त्रिभिः उच्चाधिकारिभिश्च सह विमृष्टवान् अस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सम्भूते विमर्शने आगामिनं पञ्चत्रिंशदुत्तर द्विसहस्र ख्रीष्टवर्षं यावत् अष्टाविंशत्यधिक सहस्र मेगावाट मितायाः विद्युतः उत्पादनाय विधिसम्बद्धै नीतिगतैः संस्थागतैः प्रक्रियागतैश्च सुधारैस्सह उत्पादन पूर्वाधारस्य व्यापारस्य वित्तस्रोतसश्च व्यवस्थापन कार्यं शीघ्रतया अग्रेसारयितुं निष्कर्षः निष्कासितः अस्ति। उपप्रधान अर्थमन्त्री विष्णु प्रसाद पौडेलः परराष्ट्र मन्त्री डाक्टर आरजू राणा ऊर्जा जलस्रोत सिंचन मन्त्री दीपक खड्का मुख्य सचिवः एकनारायण अर्यालश्च इत्येतेषां समुपस्थितौ सम्भूते विमर्शने ऊर्जा क्षेत्रस्य सिंचन क्षेत्राणां पूर्वाधार विकास आयोजनानां क्रियान्वयने वन वातावरणेन भूमिप्राप्त्या च सह सम्बद्धाः समस्याः परिचीय समाधानस्य विषयमाधृत्य विमृष्टम् आसीत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं मुस्लिम आयोगस्य अध्यक्षेण समीम मिया अन्सारी इत्यनेन मुस्लिम आयोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे प्रतिवेदनं गृह्णन् राष्ट्रपतिः पौडेलः देशस्य सांस्कृतिकीं विविधतां संरक्ष्य समानतां सहास्तित्वं चाधृत्य विभिन्नानां जातीनां समुदायानां च भाषायाः लिप्याः संस्कृतेः साहित्यस्य कलायाः सम्पदाञ्च संरक्षणाय विकासाय च राज्यस्य सामाजिक्याः सांस्कृतिक्याश्च रूपान्तरण सम्बद्धायाः नीतेः सन्दर्भे तस्यानुसारेणैव संघटितस्य मुस्लिम आयोगस्य दायित्वं गहनमस्तीति प्रावोचत्। ह्यः एव राष्ट्रपतेः समक्षं थारू आयोगस्य अध्यक्षः विष्णु प्रसाद चौधरी गतार्थिक वर्षे सम्पादितानां कार्याणां वार्षिकं प्रतिवेदनं प्रस्तुतवान् अस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे प्रतिवेदनं गृह्णन् राष्ट्रपतिः पौडेलः संस्कृतिः व्यक्तेः समुदायस्य च परिचयं स्वत्वं च उपस्थापयितुं महत्वपूर्णा साधनरूपास्तीति अभाषत। गृहमन्त्री रमेश लेखकः काभ्रेपलाञ्चोक जनपदस्य जलविप्लव भूस्खलन प्रभावितायाः पनौती नगरपालिकायाः द्वादश वडा क्षेत्रस्य कलाती भूमिडाँडा स्थाने अवस्थितस्य रोशी आपण क्षेत्रस्य बेथानचोक ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य पाटीखर्क स्थानस्य सलान्दु बगर स्थानस्य चलाल गणेश स्थानस्य चेती प्रभावित क्षेत्राणां स्थलगत निरीक्षणं विहितवान् अस्ति। रोशी नद्यां दुरापन्नेन जलविप्लवेन तत्र अत्यधिक जनधनयोः क्षति सम्भूता आसीत्। गृहमन्त्रिणा लेखकेन प्रभावितानां क्षेत्राणां स्थलगत निरीक्षणेन सहैव स्थानीयैस्सह तत्रत्यानां जनानाम् अवस्थायाः विषये जिज्ञासितमस्ति। अत्रान्तरे गृहमन्त्री लेखकः जलविप्लव भूस्खलनाभ्यां जनेषु पीड्यमानेषु पक्ष विपक्षौ राजनीतिकाग्रह पूर्वाग्रहौ परित्यज्य कार्यं विधातुम् आग्रहयत्। काभ्रेपलाञ्चोको जनपद विपद व्यवस्थापन समितेः उपवेशं ह्य सम्बोधयन् गृहमन्त्री लेखकः एतासां प्राकृतिक विपदां राजनीतिकीकरणं न विधेयम् इति अभाषत। अस्यैव आश्विन मासस्य दशमदिवसात् द्वादश दिवसं यावत् भूतायाः अविरल वृष्टेः कारणेन आराष्ट्रं दुरापन्नेषु जलविप्लव भूस्खलनादि प्राकृतिक विपत्सु निपत्य 47.2 जनाः मृताः सन्ति। जलविप्लव भूस्खलनादि प्राकृतिक विपत्सु निपत्य बागमती प्रदेशे 41.1 जनाः, कोशी प्रदेशे 20 जनाः, मधेश प्रदेशे 9 जनाः, लुम्बिनी प्रदेशे 2 जनौ, काष्ठमण्डप उपत्यकायां 70 जनाः मृताः सन्ति इति प्रहरिणा ज्ञापितम् वर्तते। घटनायाम् 18 जनाः विलुप्ताः वर्तन्ते। अन्य 78.1 जनाः आहताः सन्ति इति गृहमन्त्रालयेन ज्ञापितमस्ति। जलविप्लव भूस्खलनादि प्राकृतिक विपत्सु निपतितानां 17,000+ जनानां सकुशलम् उद्धारः विहितोऽस्ति इति प्रहरिणा ज्ञापितमस्ति। राष्ट्रिय ध्वजवाहकेन नेपाल वायुसेवा निगमेन अस्यैव आश्विन मासस्य चतुर्विंशे दिवसे नवरात्रस्य सप्तम्यां तिथौ काष्ठमण्डपतः भैरहवा पर्यन्तम् उद्धारोड्डयनं करिष्यते। विजयादशमी पर्वणः अवसरे यात्रिणः सहजतया गन्तव्यस्थानं प्रति प्रापयितुं निगमेन काष्ठमण्डपात् भैरहवास्थानं पुनः भैरहवास्थानात् काष्ठमण्डपं प्रति च उद्धारोड्डयनं विधातुं निर्णीतमस्ति। निगमस्य लघुकाय विमानात् उद्धारोड्डयनं विधातुं निर्णीतमस्ति इति निगमस्य कार्यकार्याध्यक्षः युवराज अधिकारी असूचयत्। राष्ट्रिय समस्याग्रस्ते राष्ट्रियं दायित्वं वहता निगमेन सर्वकारस्य निर्देशने उद्धारोड्डयनं विधीयते इति कार्यकार्याध्यक्षः अधिकारी असूचयत्। सिन्धुली जनपदे बसयानं दुर्घटितं स द्वौ जनौ घटनास्थले एव मृतौ स्तः। ह्यः काष्ठमण्डपतः भोजपुर जनपदं प्रति गच्छत् बसयानं सिन्धुली जनपदस्य हरिहरपुरगढ़ी ग्रामपालिकायाः पञ्चम वडा क्षेत्रस्य भलखाडा स्थाने दुर्घटितम् आसीत् इति प्रहरिणा ज्ञापितं वर्तते। दुर्घटनायाम् आहतानां जनानाम् उपचारः जायमानः अस्ति इति च प्रहरिणा ज्ञापितं वर्तते।